यस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। प्रधानमन्त्री केपी शर्मा ओली भाषते महिलाधिकारणाम् माध्यमेन समानतायाः लक्ष्य प्राप्तौ नेपालः विश्वस्मिन् विश्वैव उदाहरणीय देशो वर्तते। तृतीय राष्ट्रिय महिलाधिकार दिवसस्य अवसरे बालवाटार स्थिते प्रधानमन्त्री निवासे ह्य आयोजितम् कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री ओली अवोचत् सर्वकारः महिलासु भीतायाः प्रत्येकम् हिंसायाः विरूद्धे दृढतया कार्यम् कुर्वाणो वर्तते। महिला हिंसायाः कतिपय घटनासु महिलायाः एव संलग्नता दुःखद पक्षस्थिति चर्चयन् प्रधानमन्त्री ओली अवदत् सर्वकारेण बलात्कारस्य ज्वलनशील तरल पदार्थाक्रमणस्य च विरूद्धे कठोरम् विधिम् निर्माय महिला हिंसायाः विरूद्धे कार्यम् विधीयमानम् वर्तते। असौ महिलायाम् विहिता कापि हिंसा क्षम्य न भवतीति तर्केन अब्रवीत् महिला हिंसा बलात्कार ताडनापमान गाली प्रतिष्ठा मर्दन कुप्रथा प्रवृत्ति हिंसानाम् विरोधी संघर्षः सततम् चालयितव्यः। अर्थमन्त्री विष्णुप्रसाद पौडेलः गदति आगामिनः आर्थिक वर्षस्य आयव्ययकस्य प्रभावकारी क्रियान्वयनाय अद्यतः एव कार्यमग्रे वर्धाप्यते। आगामिनः आर्थिक वर्षस्य आयव्ययकस्य विशेषताः ज्ञापयितुं ह्य अर्थमन्त्रालये आयोजिते पत्रकार सम्मेलने अर्थमन्त्री पौडेलः कोविड विषाणोः महामारीं न्यूनीकर्तुं राष्ट्रस्य अर्थतन्त्रस्य प्राक्तनावस्थायामेव प्रत्यावर्तनत्वेन च आयव्ययकस्य प्रभावकारी क्रियान्वयनम् करिष्यते इति प्रतिबद्धताम् व्यक्तवान्। अर्थमन्त्री पौडेलः अवोचत् अशेष जनतायाम् टीकाकरणस्य आदानाय आगामिषु दिनेषु सर्वाः सम्भावनाः अन्विष्य अग्रेवर्धनस्य प्रतिबद्धतया आयव्ययकम् आनीतमस्ति। अर्थमन्त्री पौडेलः सांविधानिक व्यवस्थायाः अनुसारेण निर्धारित समये एव सर्वकारेण आयव्ययकम् प्रस्तुतम्। आयव्ययकम् कोरोना संक्रमणस्य निरोधनोपचार नियन्त्रणेषु केन्द्रितम् चास्तीति समस्पष्टयत्। नेपाली कांग्रेस दलस्य नेता डाक्टर रामशरण महत कथयति विद्यमानानां विकासोसायोजनानां अपूर्णतायाः बेलायं सर्वकारेण विपुलाकारकं लोकप्रियम् आयव्ययकम् आनीतमस्ति। काष्ठमण्डपे ह्य आयोजिते क्षीयमाणम् अर्थतन्त्रम् कुत्र स्खलितः सर्वकार चेति विषयके आयव्ययक समीक्षा कार्यक्रमे पूर्वार्थमन्त्री च डाक्टर महत एवम् अवदत्। कार्यक्रमे नेपाल राष्ट्र कोषागारस्य पूर्व कोषागाराधीशः डाक्टर चिरञ्जीवी नेपालः राष्ट्रिय योजनायोगस्य पूर्वोपाध्यक्षौ डाक्टर जगदीश चन्द्र पोखरेलः डाक्टर गोविन्द पोखरेलश्च विचारान् व्यक्तवन्तः। विपक्षी दलानां गठबन्धनेन नेपालस्य संविधानस्य लोकतन्त्रस्य च पक्षे एकताबद्धरूपेण सशक्तम् स्वरं मुखरीकर्तुम् राजनीतिक दलानां नेतारः कार्यकर्तारः जनसमुदायश्च आहूताः सन्ति। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देवाविदस्य बुढानीलकण्ठवर्तिनी निवासे ह्य उपविष्टेन विपक्षी दलानां शीर्षनेतृणाम् उपवेशेन संविधान विपरीतेषु क्रियाकलापेषु सहयोगिनो न भवितुम् राज्यस्य निकायः अनुरुद्धः इति उपवेशस्य पश्चात् प्रकाशितायम् विज्ञप्तौ उल्लिखितमस्ति। विज्ञप्तौ नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देवाविदस्य नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पूर्वस्प कमल दाहाल प्रचण्डस्य नेतु माधव कुमार नेपालस्य जनता समाजवादी दल नेपालस्य अध्यक्षस्य उपेन्द्र यादवस्य राष्ट्रिय जनमोर्चा दलस्य नेत्र्याः दुर्गा पौडेलस्य च हस्ताक्षराणि वर्तन्ते। पश्चात्तन समये नेपाले कोरोना विषाणुना संक्रान्तानां जनानां संख्या मृत्योः अंकमानश्च न्यूनायमानवस्था इति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। मन्त्रालयस्य अनुसारेण पञ्चभिः दिवसैः संक्रमणस्य अंकमानः न्यूनायमानो वर्तते एवं ह्यः केवलं सहस्र चतुष्टय ऊनसप्तत्यधिक शतत्रय च जनेषु एव संक्रमणं पुष्टीभूतमस्ति। दिवस पञ्चकात् प्राक् संक्रान्तानां जनानां संख्या सहस्र षड्कम् एकचत्वारिंशद् अधिक सप्तशतं च सत्यपि ह्य संख्येयं न्यूनीभूय सहस्र चतुष्टयं प्राप्ता वर्तते। कोरोना संक्रमणात् मृतानां जनानां संख्या ह्यो नवाधिक शतम् अवर्तत। स्वास्थ्य जनसंख्या मन्त्रालयस्य गतदिवसीय संचार संक्षेप कार्यक्रमे सहप्रवक्ता डाक्टर समीर कुमार अधिकारी ह्य दश सहस्राणां षडशीत्यधिक नवशतस्य निदर्शनानां पीसीआर विधिना परीक्षणं विहितं सत् सहस्रत्रयं द्व्यधिक सप्तशतं च चतुरशीत्यधिक सप्तशतस्य निदर्शनानां एन्टीजेन विधिना परीक्षणं विहितं सत् सप्तषष्ट्यधिक षड्शत चेति कृत्वा सहस्र चतुष्टय ऊनसप्तत्यधिक शतत्रय च जनेषु संक्रमणं पुष्टीभूतमिति अवोचत। सम्प्रति आराष्टम् लक्ष्यम् अष्ट सहस्राणि सप्तनवत्यधिकाष्टौ शतं च सक्रिय संक्रान्ताः जनाः सन्ति। नेपाले ह्य अतिरिक्ताः षट्सहस्राणि पञ्चाधिक शतद्वयं च जना कोरोना संक्रमणात मुक्ता नेपाले ह्यस्तनावधि प्रतिशतम दशमलव व्यधिकोना स्थिति संक्रांत जना स्वस्थताम प्राप्नुवनीति मंत्रालय से सह प्रवक्ता डाक्टर अधिकारी अगदत सक्रिय संक्रांताना मध्य लक्ष्यम सहस्रम चतुस्त्रिंशत उत्तर शतत्रयंच गृह कांतवासेषु अवशिष्टा सप्तसहस्राणि त्रिषष्ट्यधिक पञ्चशतंच जना विभिन्नेषु चिकित्सालयेषु संस्थागत एकांतवास केन्द्रेषु च उपचर्यमाणाः सन्ति। कोरोना विषाणुना संक्रान्तानां जनानां विधीयमानोपचारेषु बांके जनपदस्य चिकित्सालयेषु पश्चात्तन समय मृत्योः अंकमानः न्यूनायमानो वर्तते। प्रतिदिनं पञ्चदशतः सप्तदश जनानां मृत्योः जायमानेऽपि इदानीं संख्येयं न्यूनतां प्राप्त्यति जनपद कोविड संकट व्यवस्थापन केन्द्रस्य श्रोतो व्यक्ति तेज ओली अबोधयत। डडेलधुरा जनपदेऽपि कोरोना संक्रमणस्य अंकमानः क्षीयमाणेणो वर्तते। एवमेव द्वितीय प्रदेशस्य विभिन्नेषु जनपदेष्वपि कोरोना संक्रमणस्य अंकमानः न्यूनायमानोऽस्ति। निषेधाज्ञायाः कारणेन कोरोना संक्रमणं न्यूनीभूतमिति चिकित्सकाः वदन्ति। इति समाचारः।